द्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्ष्णैर्युताम् इन्दुनिबद्धरत्नमकुटां तत्त्वार्थवर्णात्मिकां गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालङ्गदां शङ्खं चक्रमथारविन्दयुगळां हस्तैर्वहन्तीं भजे श्रेयःसदा सवितृमण्डलमध्यवर्ती नारायणसरसिजासनसन्निविष्टः केयोरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। नमस्कारं स्मास्ट्। నమస్కారం మాస్టర్ ఎంఎన్ నమస్కారం మాస్టర్ సివివి నమస్కారం మాస్టర్ సివివి నమస్కారం మాస్టర్ సివివి టు యువర్ లోటస్ ఫీట్ ప్లీజ్ లెట్ మీ రిసీవ్ ది ఇన్ఫ్లక్స్ ఆఫ్ దై ప్లెంటీ ఆఫ్ ప్రాణ ఇన్ టు మై సిస్టమ్ దట్ ఐఎమ్ ఏ రెసిస్ట్ disease, decay and death, realize pure love, the highest truth and the bliss of existence, and serve humanity according to thy plan. Master CVV, namaskarams to your lotus feet. हरिः ॐ तच्छं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शं नो अस्तद्युपदे शं चतुष्पदे శాంతి 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 సహస్రశీర్షా పురుష సహస్రాక్ష సహస్రపాత్ సభూమిం విశ్వతో వృత్వా అత్యతిష్టద్దశాంగుళం పురుష ఏవేదం సర్వం యద్భూతం యచ్చ భవ్యం ముతామృతత్వశేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతోజ్యాయాగంస్య పూరుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధోదయేత్పురుషః పాదోస్యేహాభవాత్పునః తతో విశ్వన్యక్రామతో సాశనానశనే అభి తస్మాద్ విరాడ జాయత విరాజో అధిపూరుషః సజాతోచ్చరిచ్యత పశ్చాద్ భూమిమథో పురః యత్పురుషేణ హవిషా దేవాయజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మ ఇద్మ శరద్ధవి सप्तास्यासनुपरिधयः त्रिसप्त समिधः कृताः देवाय यज्ञं तं वानाः अबध्नन् पुरुषं पशुं तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्चये तस्मात् यज्ञात् सर्वहुतः संहृतं पृषदाद्यं पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये तस्मात् यज्ञात् सर्वहुतः ऋजः सामानि यज्ञरे छन्दांसि यज्ञरे तस्मात् यजुस्तस्मादजायत तस्मादश्व अजायन्त ये केचोपयादतः गावोह यज्ञरे तस्मात् तस्माद्याता अजावयः यत्पुरुषं यदधुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहो काहोरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ऊरूतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षं शीर्ष्णोऽज्यौ समवर्तत पद्भ्यां भूमिर्दिश श्रोत्रात् तथा लोकाम् अकल्पयन् वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा अभिवदन् यदास्ते धाता पुरस्ताद्यमुदाजहार चक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् तेहनाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्य सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा वितधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यते अयनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमोरुचाय ब्राह्मये रचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असंवसे ह्रीश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टं मनिषाणा अमुं मनिषाणा सर्वं मनिषाणा ॐ तच्छं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शं नो अस्तुद्युपदे शं चतुष्पदे शान्ति शान्ति शान्तिः।